Welcome to Vedic Mythology, Music, and Mantras. I'm Ben Collins. This podcast is presented by Puja.net, an online source for traditional Vedic pujas and yagyas. In today's episode, we are going to listen to a series of mantras that are oriented towards the protection of health. They go along with the April 2020 Yagya series for Puja.net. We begin with Uttisthikanapati Kavacham. Kavacham means armor, and this mantra invokes the protective power of this particular form of Ganesha, the elephant-headed god who is the son of Shiva and Parvati. He is very protective and is known as the protector deity of a country, thus making this form of Ganesha particularly appropriate in light of current events. Interestingly, this form of Ganesha was the patron icon in Kanchipuram, where we perform our 10-day Yagya series every month. However, in the late 1400s, the king of Puri, Purushottama Deva, conquered Kanchipuram and took the Ganapati to Puri as war booty, and it has a place in the famous Jagannath Temple in Puri to this day.
Srimaduchishta Ganapati Kavacham Devyuvaja Devadeva Jagannatha Srishti Sthitilayatmaka Vina Dhyanam Vina Mantram Vina Homam Vina Japam Yena Smarana Matrena Labhyate Chasu Chintitam Tadeva Shrotam Ichhami Kathayasva Jagat Prabha Ishvara Vacha Shrunu Devi Prabhakshyami Guhyat Guhyataram Mahat Uchishta Gananathasya Kavacham Sarva Siddhitam Alpaya Sair Vinakattair Japa Matrena Siddhitam Atha Bhakshyami Deveshi Kavacham Mantra Purvakam Yena Vijnana Matrena Raja Bhoga Palapradam Visharme Janakapatu Shirasicha Nirantaram Trahi Vandevi Gayatri Chantarisha Sadamuke Hridaye Patu Vam Nityam Uchishta Gana Devata Guhye Rakshatu Tadbijam Swaha Saktischa Padayoha Kama Kilakam Sarvange Viniyogascha Sarvada Parshvadvaje Sadapatu Swasaktyam Gananayakaha Shikhayam Patu Tadbijam Brumadhyetara Bijakam Hastivatrascha Shirasi Lambodarola Latake Uchishtonetra Yopadu Karno Padu Mahatmane Pasham Kushamaha Bijam Nasikayan Charakshatu Hrudeshwara Parapadu Asyam Jipam Swajam Vapuhu Tadbijam Patu Mam Nityam Grivayam Kanta Darshake Gambi Janja Tatha Rakshe Tatha Pagreja Prishthake Sarvakamascha Hrudpadu Patu Mam Chakaratvaje Uchishtaya Chakhridaje Vanni Bijam Tathodare Maya Bijam Tathakatyam Dvavuru Siddhidayakaha Jankayam Gananathascha Padau Padu Vinayakaha Shirasappada Paryantam Uchishta Gananayakaha Apada Mastakantanja Uma Putrascha Patuma Dishashtau Chata Chakase Patale Vidishashtake Aharnisancha Mampadu Matachanchala Locha दुष्टगारागृहे वने राजद्वारे घोरपथे पादुमाङ्गननायकः इदन्तु कवचं गुह्यं मम वक्राद्विनिर्गतम् त्रैलोक्ये सततं पातु द्विभुजश्च चतुर्भुजः बाह्यमभ्यन्तरं पातु सिद्धिबुद्धिर्नायकः सर्वसिद्धिप्रदं देवि कवचं वृद्धिसिद्धिदम् एकान्ते प्रजपेन्मन्त्रं कवचं युक्तिसंयुतम् इदं रहस्यं कवचम् उच्चिष्टगणनायकम् सर्ववर्मसु देवेशि इदं कवचनायकम् एतत्कवचमाहात्म्यं वर्णितुं नैव शक्यते धर्मार्थकाममोक्षादि नानाफलप्रदं नृणां शिवपुत्रः सदा पातु पातु मां सुरार्चितः गजाननः सदा पातु गणराजश्च पातु मां सदा शक्तिरतः पातु पातु मां कामविह्वलः सर्वाभरणभूषाढ्यः पातु मां सिन्दुरार्चितः पञ्चमोदकरः पातु मां पार्वतीसुतः पाशाङ्कुशधरः पातु मां च धनेश्वरः गदाधरः सदा पातु मां काममोहितः नग्ननारीरथः पातु मां च गणेश्वरः अक्षय्यवरदः पातु शक्तियुक्तः सदावतु बालचन्द्रः सदा पातु नानारत्नविभूषितः उच्चिष्टगणनाथश्च मदाघूर्णितलोचनः नारीयो निरसास्पादः पातु मां गजकर्णकः प्रसन्नवदनः पातु मां भगवदल्लभः जटाधरः सदा पातु मां च किरीटधृगे पद्मासनस्थितः पातु रक्तवर्णश्च पातु मां नग्नसामपदोन्मत्तः पातु मां गणदैवतः मामाङ्गे सुन्दरी युक्तः पातु मां मन्मथप्रभुः क्षेत्रप्रवसितः पातु मां श्रुतिपाठकः भूषणाढ्यस्तु मां पातु नानाभोगसमन्वितः स्मितारनः सदा पातु श्रीगणेशकुलान्वितः श्रीरक्तचन्दनमयः सुलक्षणगणेश्वरः श्वेताङ्गगणनाथश्च हरिद्रागणनायकः परिभद्रगणेशश्च पातु सप्तगणेश्वरः प्रवालकगणाध्यक्षो गजदन्तो गणेश्वरः हरबीजगणेशश्च भद्राक्षगणनायकः दिव्यौषधिसमुद्धूतो गणेशश्चिन्तितप्रदः लवणस्य गणाध्यक्षो मृत्तिकागणनायकः तण्डुलाक्षगणाध्यक्षो गोमयस्य गणेश्वरः स्फटिकाक्षगणाध्यक्षो रुद्राक्षगणदैवतः नवरत्नगणेशश्च आदिदेवो गणेश्वरः पञ्चाननश्च दुर्वक्त्रः षडाननगणेश्वरः मयूरवाहनः पातु मां मूषकासनः पातु मां देवदेवेशः पातु मां ऋषिपूजितः पातु मां सर्वदा देवो देवदानवपूजितः त्रैलोक्यपूजितो देवः पातु मां च विभुप्रभुः रङ्गस्थं च सदा पातु सागरस्थं सदावतु भूमिस्तञ्च सदा पातु पातालस्तञ्च पातु माम् अन्तरिक्षे सदा पातु आकाशस्थं सदा वदु चतुष्पथे सदा पातु त्रिपथस्थं च पातु माम् बिल्वस्थं च वनस्थं च पातु माम् सर्वतस्थितम् राजद्वारस्थितं पातु पातु माम् शीघ्रसिद्धितः भवानी पूजितः पातु ब्रह्म विष्णु शिवार्चितः इदं तु तव चन्देवी पठनात् सर्वसिद्धितम् उच्चिष्टगणनाथस्य समन्त्रं कवचं परम् स्मरणात् भूपतित्वं च लभते साङ्गतां ध्रुवम्
The most prominent mantra to protect health is called Mrityunjaya. I've included a fairly musical rendition of the mantra, followed by the Mrityunjaya Kavacham, an extended version that emphasizes the protective qualities of the Mrityunjaya mantra, and it is chanted in a traditional manner.
Om Jum Sah. Sahajum
मृत्युंजय कवचम्
भैरव उवाच शृणुष्व परमेशानि कवचम् मन्मुखोदितम् महामृत्युंजयस्यास्य न देयं परमाद्भुतम् यं धृत्वा यं पठित्वा च यं श्रुत्वा कवचोत्तमम् त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि तदेव वर्णयिष्यामि तव प्रीत्या वरानने तथापि परमं तत्त्वं न दातव्यं दुरात्मने अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरवऋषिः गायत्री छन्दः श्रीमृत्युञ्जयरुद्रो देवता ॐ बीजं जुं शक्तिः सह कीलकम् औमिति तत्त्वं चतुर्वर्गफलसाधने जपे विनियोगः ॐ चन्द्रमण्डलमध्यस्थे रुद्रमाले विचित्रिते तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॐ जुं सः हौं शिरः पातु देवो मृत्युञ्जयो मम श्रीशिवो वैललाटं च ॐ हौं भ्रुवौ सदा शिवः नीलकण्ठो वतान्नेत्रे कपर्दीमेव ताच्छ्रुति दुर्योधनो वतां गण्डौ नासा मे त्रिपुरान्तकः मुखं पीयूषघटभृत् ओष्ठौ मे कृत्तिकाम्बरः हनुं मे हाटकेशानो मुखं पटुकभैरवः कन्धरां कालमथनो गलं गणप्रियो वधु स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशो वधु नरान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम कुक्षिर्कुबेरवदनः पार्श्वो मे मारशासनः शर्वः पातु तथा नाभिं शूलीपृष्ठं ममावतु शिष्टं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः कटिं कालान्तकः पायात् ऊरुहेन्धकघातकः जागरूकोऽवताज्जानु भ्यङ्गे मे कालभैरवः गुल्फौ पायात् जटाधारी आदौ मृत्युञ्जयो वतु पादादिमूर्धपर्यन्तं सद्यो जातो ममावतु रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः पूर्वे बलविकरणो दक्षिणे कालशासनः पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः ऐशान्यामीश्वरः पायात् आग्नेयामग्निलोचनः नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ऊर्ध्वं बलप्रमथनः पाताले परमेश्वरः दश दिक्षु सदा पातु महामृत्युञ्जयश्च मां रणे राजकुले द्यूते विषमे प्राणसंशये पायार्दोजुं महारुद्रो देवदेवो दशाक्षरः प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवो वतु सायं सर्वेश्वरः पातु निशायां नित्यचेतनः अर्धरात्रे महादेवो निशान्ते मां महोदयः सर्वदा सर्वतः पातु ॐ जुं सः हौं मृत्युञ्जयः इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभं सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितं पुण्यं पुण्यप्रदं दिव्यं देवदेवादिदैवतं यैदं च पठेन्मन्त्रं कवचं वाचयेत्ततः तस्य हस्ते महादेवी त्रयम्बकस्याष्टसिद्धयः रणे धृत्वा चरेद्युद्धं हत्वा शत्रून् जयं लभेत् जलं कृत्वा गृहे देवी सम्प्राप्स्यति सुखं पुनः महाभये महारोगे महामारीभये तथा दुर्भिक्षे शत्रुसंहारे पठे कवचमादरात् महामृत्युञ्जय कवचम् सम्पूर्णम्।
The Ashwins are the twin gods of medicine, founders of Ayurveda, and are first found in the Rig Veda, where they are mentioned 398 times, and have 50 different hymns dedicated specifically to them. In the epic Mahabharata, King Pandu's wife Madri is granted a son by each Ashwin and bears the twins Nakula and Sahadeva, who are known as the Pandavas. For the Ashwins, I've included the Ayush Suktam from Yajurveda. This is a fairly brief sloka from Yajurveda, and it is used as a mantra for a homam, the Vedic fire ritual, and the meaning is very poetic. Brahma was born from the breath of Brahman. Shiva, attired in elephant skin and wielding his pinaka weapon, arose out of his head. I play to Brahma, Shiva, and Vishnu for long life by offering ghee into this fire. Agni, who is fiery bright and who provides warmth, arose from the effulgent crest of Brahman. May Agni release us from the dreadful noose of death. I offer ghee into the fire. The radiance of Brahman gave birth to the victorious golden-orbed sun. May the sun grant us long life. I offer ghee into the fire. I offer ghee to Goddess Lakshmi as the embodiment of treasure of knowledge, whose source is Brahman and who is addressed by six names, Sri, Lakshmi, Aubala, Ambika, Gam, and Indrasena. May she grant us long life. I offer ghee to the divine Ganas and their various forms so that they remove all obstacles which come in the way of our long life. May those divine Ganas protect our valiant children. Brahman, who existed all alone before the creation and brought forth many gods and celestials to protect and help people in need, I offer ghee to the Absolute Being, all gods and celestials, and pray for long life for me and my family.
Yo Brahma Brahmana Ujjahara Praneshvira Kirtivasa Af Pinaki Ishano Devasana Ayurdadhatu Tasmai Juhomi Havishagritena Vibhrajamanas Sarirasya Madhyadrojamano Gharma Ruchiraya Aghat Samrityupasadapanudya Ghora Nihayusheno Ghritamattu Devaha Brahmajyate Brahma Patneshu Garbhayamadadhar Ururupam Jayantam Suvarnarambhagrahamarkamarchyantamayushe Vardhayamo Ghritena Shriyallakshmi Maubalam Ambikam Gam Sashtim Jayamindrasene Chudahuhu Tam Vidyam Brahmayonikam Sarupam Ihayushe Tarpayamo Ghritena Dakshayanyas Sarvayonyas Yonyas Sahasraso Vishvarupa Virupaha Sasunavastapatayasayothya Ayusheno Ghritamidam Jushantam Divyagana Bhagurupa Purana Ayurchidona Pramathrantu Viran Tebhyo Juhami Bhagudha Ghritena Manav Prajagumri Rishomoda Viran Yekav Purastatya Idam Vabhuva Yato Vabhuva Bhuvanasya Gopaha Yamapyeti bhuvanagumsa amparaya sanoha virghritamiha yushe ettu devaha Vasun rudran adityan marutota sadhyan dribhon yakshan Ganandharva gishcha pitre gishcha vishman Brugon sarpa gishcha angiratota sarvan Ghritakum hudva svayushya mahayama shashvat Vishnatvanno antamasharma yaccha sahantya Prate dhara madhuschuta utsandukhrate akshitam Abhergir bhiryadatona unamapyayaya harivo vardhamanaha Yadastotribhyo mahi gotra rujasi bhuyishta bhajo athate syama Brahma pravadishmatanno mahasit Om shanti shanti shanti
Many of these mantras reference the sun. So I have included the Aditya Hridayam, which was given by the Rishi Agastya to Rama on the battlefield to invoke the sun as a source of strength and protection.
Ata Aditya Hridayam
Shuklam Varadharam Vishnam Shashivarnam Chaturbhujam Prasannavadanam Jayet Sarva Vighnopashantaye
Asya Shri Aditya Hridaya Stotra Mahamantrasya Agastyo Bhagavan Rishihi Anushtubh Chandaha
ఆదిత్య హృదయ భూతో భగవాన్ బ్రహ్మా దేవత
నిరస్త అశేష విఘ్నతయ బ్రహ్మ విద్యా సిద్ధౌ సర్వత్ర జయ సిద్ధౌ చ వినియోగః
రశ్మిమతే అనుష్టాభ్యాం నమః
సముద్యతే తర్జనేభ్యాం నమః
దేవాసుర నమస్కృతాయ మధ్యమాభ్యాం నమః
వివస్వతే అనామికాభ్యాం నమః
భాస్కరాయ కనిష్ఠికాభ్యాం నమః
భువనేశ్వరాయ కరతలకరపృష్టాభ్యాం నమః
రశ్మిమతే హృదయాయ నమః
సముద్యతే శిరసే స్వాహా
దేవాసుర నమస్కృతాయ శిఖాయై వషటే
వివస్వతే కవచాయ హుం
భాస్కరాయ నేత్రత్రయాయ వౌషటే
భువనేశ్వరాయ అస్త్రాయ భటే
ధ్యానం
ప్రతిపత్తస్య విష్ణో రూపం చ సత్యత్తస్య చ బ్రహ్మణః
అమృతస్య చ మృత్యోశ్చ సూర్యమాత్మానమీమహి
తతో యుద్ధ పరిశ్రాంతం సమరే చింతయా స్థితం రావణం చాగ్రతో దృష్ట్వా యుద్ధాయ సముపస్థితం దైవతైశ్చ సమాగమ్య ద్రష్టుమభ్యాగతోరణం ఉపాగమ్యాబ్రవీద్రామం అగస్త్యో భగవాన్ ఋషిః రామ రామ మహాబాహో శృణు గుహ్యం సనాతనం యేన సర్వానరీన్ వత్స సమరే విజయిష్యసి ఆదిత్యహృదయం పుణ్యం సర్వశత్రువినాశనం జయావహం జపేన్నిత్యం అక్షయ్యం పరమం శివం సర్వమంగళమాంగళ్యం సర్వపాపప్రణాశనం చింతాశోకప్రశమనం ఆయుర్వర్ధనముత్తమం రశ్మిమంతం సముద్యంతం దేవాసురనమస్కృతం పూజయస్వ వివస్వంతం భాస్కరం భువనేశ్వరం సర్వదేవాత్మకో హ్యేష తేజస్వీ రశ్మిభావనః ఏష దేవాసురగణాన్ లోకాన్ పాతికభస్తిభిః ఏష బ్రహ్మా చ విష్ణుశ్చ శివస్కందః ప్రజాపతిః మహేంద్రోఘనదః కాలో యమః సోమోహ్యపాంపతిః పితరో వసవః సాధ్య కిర్షిణో మరుతో మనుః
వాయుర్వన్నిః ప్రజా ప్రాణా ఋతుకర్తా ప్రభాకరః
ఆదిత్యః సవితా సూర్యః ఖగః భూషాగభస్తిమాన్
సువర్ణస్తపనో భానుః స్వర్ణరేతా దివాకరః
హరిదశ్వః సహస్రార్చిః సప్తసప్తిర్మరీచిమాన్
నిమిరోన్మథనః శంభుః
తుష్టా మార్తాండకోంశుమాన్
హిరణ్యగర్భః శిశిరః
తపనో భాస్కరో రవిః
అగ్నిగర్భోదిజేః పుత్రః
శంఖః శిశిరనాశనః
వ్యోమనాథస్తమో భేది
ఋగ్యజుః సామపారగః
ఘనవృష్టిరపాం మిత్రో
వింధ్యవీథీ ప్లవంగమః
ఆతపీమండలీ మృత్యుః
పింగళః సర్వతాపనః
కవిర్విశ్వో మహాతేజ
రక్తః సర్వభవోద్భవః
నక్షత్రగ్రహతారాణాం
అధిపో విశ్వభావనః
తేజసామపి తేజస్వీ
ద్వాదశాత్మన్నమోస్తుతే
నమః పూర్వాయ గిరయే
పశ్చిమాయాద్రయే నమః
జ్యోతిర్గణానాం పతయే
దినాధిపతయే నమః
జయాయ జయ భద్రాయ
హర్యశ్వాయ నమో నమః
నమో నమః సహస్రాంశో
ఆదిత్యాయ నమో నమః
నమ ఉగ్రాయ వీరాయ
సారంగాయ నమో నమః
నమః పద్మప్రబోధాయ
మార్తాండాయ నమో నమః
బ్రహ్మేశానాచ్యుదేశాయ
సూర్యాయాదిత్యవర్చసే
భాస్వతే సర్వభక్షాయ
రౌద్రాయ వపుషే నమః
తమోఘ్నాయ హిమఘ్నాయ
శత్రుఘ్నాయామితాత్మనే
కృతఘ్నఘ్నాయ దేవాయ
జ్యోతిషాం పతయే నమః
తప్తజామీకరాభాయ
వన్నయే విశ్వకర్మణే
नमस्तमोभिनिघ्नाय ऋचये लोकसाक्षिणे नाशयत्येष वैभूतम् तदेव सृजति प्रभुः पायत्येष तपत्येष वर्षत्येष गभस्तिभिः एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः एष एवाग्निहोत्रम् च फलम् चैवाग्निहोत्रिणाम् वेदाश्च कृतवश्चैव क्रतूनाम् फलमेव च यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः येन मापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च कीर्तयन् पुरुषः कश्चित् नावसीदति राघव पूजयस्वेनमेकाग्रो देवदेवम् जगत्पतिम् एतत्त्रिगुणितम् जप्त्वा युद्धेषु विजयिष्यसि अस्मिन् क्षणे महाबाहो रावणम् त्वम् वदिष्यसि एवमुक्त्वा तदागस्त्यो जगाम च यथागतम् एतत् श्रुत्वा महातेज नष्टशोकोऽभवत्तदा भारयामास सुप्रीतो राघवः प्रयतात्मवान् आदित्यम् प्रेक्ष्य दत्त्वा तु परम् हर्षमवाप्तवान् त्रिराचम्यशुचिर्भूत्वा धनुरादाय वीर्यवान् रावणम् प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् सर्वयत्नेन महता वधे तस्य कृतोऽभवत्
अथ रविरालङ्गीक्ष रामम् मुदितमनाः परमम् प्रविश्यमाणः निशिचरपति संशयम् विदित्वा सुरगणमध्यगतो वचस्त्वरे
Another well-known Vedic hymn for help, strength, and protection is from the Rig Veda and is called the Pavamana Suktam, which literally means to be purified. There's a simple mantra contained in it that one tends to hear a lot. Asato ma sadgamaya, tamaso ma jyotirgamaya, mrityor mam amritam gamaya. This translates to, from falsehood lead me to truth, from darkness lead me to the light, from death lead me to immortality.
Pavamanasu Bharjanaha Pavitrena Vicharshanihi Yav Potha Sapunatuma Pudantuma Deva Janaha Pudantuma Namodhiya Pudantu Vishva Ayavaha Jata Veda Pavitravat Pavitrena Punahima शुक्रेण देव दीद्यत् अग्ने क्रत्वा क्रतो गुम्रणो यत्ते पवित्रमर्चिषि अग्ने विततमन्तरा ब्रह्मतेन पुणीमहे गुहाभ्याम् देव सवितः पवित्रेण समेन च इदम् ब्रह्म पुणीमहे वैश्वदेवी पुनति देव्यागात् यस्यी बह्वेस्तनुवो भीतपृष्ठाः तया मदन्तः सधमाद्येषु पजग्स्यामपतयोरयीनाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरोमयो भूः द्यावा पृथिवी पयसामयोभिः हृतावरी यज्ञिले मा पुनीताम् बृहद्भिः सवितस्त्रिभिः वर्षिष्ठैर्देव मन्मभिः अग्ने दक्षैः पुनाहिमा येन देवा अपुनत येनापो दिव्यङ्गशः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे यः पावमानीरध्येति ऋषिभिः संभृतगुम्रसम् सर्वगुम् सभूतमश्नाति स्वदितम् मातरिश्वना पापमानीर्यो अध्येति ऋषिभिः संभृतगुम् रसम् तस्मै सरस्वती दुहे क्षीरगुम् सर्पिर्मधुदकम् पापमानी स्वस्त्यजनीः सुदुघाहि पयस्वतीः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पापमानीर्दिशन्तु नः किमल्लोकमथो अमुम् कामान् समर्थयन्तु नः देवैर्देवैः समाभृताः
पावमाने स्वस्त्ययनीः सुदुघाहि घृतश्च्युतः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुं हितम् येन देवाः पवित्रेण आत्मानं पुनते सदा तेन सहस्रधारेण पावमान्यः पुनन्तु मा प्राजापत्यं पवित्रम् सतोद्यापगुं हिरन्मयम् तेन ब्रह्मविदो भयम् भूतं ब्रह्म पुलीमहे इन्द्रः सुनीति सह मा पुनातु सोमस्वस्त्या वरुणः समीच्या यमो राजा प्रमृणाभिः पुनातु मा जातवेदामोर्जयन्त्या पुनातु.
Durga is one of the forms of the Divine Mother who comes to protect us from all sorts of problems, disease being one of them. The story of Durga is told in the Chandipat text, also known as the Devi Mahatmyam. For our selection, we're going to listen to Durga Suktam.
जातवेदसे सुनवामसो ममराति यतो निजः शिवेदः स नः परिषदति दुर्गानि विश्वानामेव सिन्धुं दुरितात्यग्निः तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टा दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः अग्ने त्वं पारय नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पूश्च पृथ्वी बहुला न पूर्वे भवातोकायतनयाय संयोः विश्वानि नो दुर्गः जातवेदः सिन्धुं न नावा दुरिताधिपर्षि अग्ने अत्रिवन्मनसा गृह्णानो अस्माकं भोध्यविता तनूना पृतनाजितगुं सहमानमग्निमुग्रगुं भुवेम परमा सधस्थात् स नः परिषदति दुर्गाणि विश्वाक्षामद्येव अतिदुरितात्यग्निः प्रत्नोषि कमेभ्य अध्वरेषु सनाश्च होता नव्यस्त्यशत्सी स्वां चाग्ने तनुवं विप्रयस्वास्मभ्यं च सौभगमायजस्व ॐ कार्त्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात् ॐ कार्त्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गिः प्रचोदयात्
Hanuman is the embodiment of strength and the adherence to Dharma or natural law. There is a well-known story in the Ramayana when Rama's brother Lakshmana was in danger of dying, and Rama sent Hanuman to retrieve the Sanjivani healing herb from the Dronagiri Parvat or mountain. When Hanuman flew to the mountain, he wasn't certain which plant to pick. So he simply picked up the entire mountain, flew it back to Rama in the south of India, and Lakshmana's life was saved. So we'll listen to some Hanuman mantras, followed by the Amrita Sanjivani Stotram.
विद्महे महावीराय धीमहि तन्नो हनुमत् प्रचोदयात्
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् कपीशमक्षहन्तारम् वन्दे लङ्काभयङ्करम् बुद्धिर्बलं यशोधैर्यम् निर्भयत्वमरोगता अजाद्यं वाक्पटुत्वं च हनुमस्मरणात् भवेत् असाध्यः साधकः स्वामिन् असाध्यं तव किं वद रामदूतकृपा सिन्धो मत्कार्यं साधय प्रभो
अथ अमृतसञ्जीवनस्तोत्रम् अथावदमहं वक्षे मृतसञ्जीवनं स्तवं यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते असाध्याः कष्टसाध्याश्च महारोगाभयङ्कराः शीघ्रं नश्यन्ति पठनात् अस्यायुश्च प्रवर्धते शाकिनीडाकिनी दोषाः कुदुष्टिग्रहशत्रुजाः प्रेतवेताळयक्षोत्ता बाधा नश्यन्ति चाखिलाः दुरितानि समस्तानि नानाजन्मोद्भवानि च संसर्गजविकाराणि विनीयन्तेऽस्य पाठतः सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये आयुः प्रवर्धये चेतस्तोत्रं परममद्भुतम् बालग्रहाभिभूतानां बालानां सुखदायकम् सर्वारिष्टहरं चैतद्बलपुष्टिकरं वरम् बालानां जीवनायैतस्तोत्रं दिव्यं सुधोपमम् मृतवत्सत्त्वहरणं चिरञ्जीवित्वकारकम् महारोगाभिभूतानां भयव्याकुलितात्मनां सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् अल्पमृत्युश्चापमृत्युः पाठादस्य प्रणश्यति जलाग्निविषशस्त्रादिनशृङ्गिभयं तथा गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् महारोगहरं नृणामल्पमृत्युहरं परम् बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः भवन्ति सुखिनः पाठादस्य लोके चिरायुषः अस्मात् परतरं नास्ति जीवनोपायकेहिकः तस्मात् सर्वप्रयत्नेन पाठमस्य समाचरेत् अयुतावृत्तिकं वा च सहस्रावृत्तिकं तथा तदर्थं वा तदर्थं वा पटेदेतच्छ भक्तितः कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः सायं प्रातश्च विधिवस्तोत्रमेतत्पटेत् सुधीः सर्विषाः विषावापि संयागेनाथ भक्तितः दशांशमानतो होमं कुर्यात् सर्वार्थसिद्धये नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय नमो नमस्तेऽखिलोकपाय नमो नमस्तेऽखिलकामदाय नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिलोकभर्त्रे दृष्टं देवचराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते विश्वं संहितये तदेव निखिलं रुद्रस्वरूपेण ते सञ्चिद्यामृतशेखरैर्हरमहारिष्टं चिरञ्जीवय योधन्वन्दरिदं गजा विगदितक्षीराब्धितो विश्रुतो हस्ताभ्याञ्जलजीवनाय कलशं पीयूषपूर्णं दधत् आयुर्वेदमरीचजदर्वतां नाशाय सत्त्वं मुदा संशिच्यामृतशीकरैर्हरमहारिष्टं शिरं जीवय स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं कृत्वा पाययति स्वयः सुरगणान् पीयूषमत्युत्तमं चक्रे दैत्यगणान् सुधाविरहितान् सम्मोदसत्त्वं मुदा संशिच्यामृतशीकरैर्हरमहारिष्टं शिरं जीवय चाक्षुषोदधि संलाप भूवेदपचशा कृते सिञ्च सिञ्चामृतगणैश्चिरं जीवय जीवय पृष्ठमन्दरनिघूर्णनिद्राक्षकमटा कृते सिञ्च सिञ्चामृतगणैश्चिरं जीवय जीवय याञ्चाछलपनिद्रासमुक्तनिर्जरवामन सिञ्च सिञ्चामृतगणैश्चिरं जीवय जीवय धरोद्धारहिरण्याक्षघातक्रोडा कृते प्रभो సించ సించామృతగణేశ్చిరం జీవయ జీవయ భక్తత్రాస వినాశాత్త చండద్వర్హరే విభో సించ సించామృతగణేశ్చిరం జీవయ జీవయ క్షత్రియారణ్య సంచేద కుటారకర రేణుక సించ సించామృతగణేశ్చిరం జీవయ జీవయ రక్షోరాజ ప్రతాపాభిశోషణాశుకరాఘవ సించ సించామృతగణేశ్చిరం జీవయ జీవయ భూభారాసుర సందోహ కాలాగ్రే రుక్మిణీపతే సించ సించామృతగణేశ్చిరం జీవయ జీవయ వేదమార్గరతానర్హ విభ్రాంతిర్బుద్ధరూపదృగ్ సించ సించామృతగణేశ్చిరం జీవయ జీవయ కలివర్ణాశ్రమాస్పష్టధర్మధ్యైర్లలిరూపభాగ్ సించ సించామృతగణేశ్చిరం జీవయ జీవయ అసాధ్యా కష్టసాధ్యాయే మహారోగాభయంకరాః ఛిందితానాశుచక్రేణ చిరం జీవయ జీవయ అల్పమృత్యుం చాపమృత్యుం మహోత్పాతానుపద్రవాన్ భిన్ని భిన్ని గదాఘాతైశ్చిరం జీవయ జీవయ అహం న జానే కిమపి త్వదన్యాత్ సమాశ్రయే నాథ పదాంబుజం తే కురుష్వ తద్యన్మనసీప్సితం తే సుకర్మణాకేన సమక్షమీయాం త్వమేవ తాతో జననీ త్వమేవ త్వమేవ నాథశ్చ త్వమేవ బంధుః విద్యాధనాగారకులం త్వమేవ త్వమేవ సర్వం మమ దేవదేవ నమే పరాధం ప్రవిలోకయ ప్రభో పరాధ సింధోశ్చ దయానిధిస్త్వం తాతేన దుష్టోపి సుతః సురక్షతే దయాలు తాతే వదు సర్వదాస్మాన్ అహహ విస్మరనాథ నమాం సదా కరుణయా నిజయా పరిపూరితః భువి భవాన్యతి మే నహి రక్షకః కథమహో మమ జీవనమత్ర వే జగదః కృపయా త్వం జాతిజాలం విశాలం హరహర కరవాలం చాల్పమృత్యోకరాలం నిజజన పరిపాలం త్వాం భజే భావయాలం కురు కురు బహుకాలం జీవితం మే సదాలం నయత్ర ధర్మాచరణం నదానం వ్రతం నయాగో న చ విష్ణుచర్చ న పితృగో విప్రవరామరార్చ స్వల్పాయుషస్తత్ర జనా భవంతి క్లీం శ్రీం క్లీం శ్రీం నమో భగవతే జనార్దనాయ సకల దురితాని నాశయ నాశయ క్షౌమారోగ్యం కురు కురు హ్రీం దీర్ఘమాయుర్దేహి దేహి స్వాహ అస్య ధారణతో జాపాదల్పమృత్యుః ప్రశామ్యతి గర్భరక్షాకరం స్త్రీణాం బాలానాం జీవనం పరం శతం పంచాశతం శక్త్యాథవా పంచాధివింశతిం పుస్తకానాం ద్విజేభ్యస్తు దద్యాద్ దీర్ఘాయుషాప్తయే భూర్జపత్రే విలిఖ్యేదం కంఠే వా బాహుమూలకే సంధారయేద్ గర్భరక్షా బాలరక్షా జాయతే సర్వే రోగా వినశ్యంతి సర్వా బాధా ప్రశామ్యతి కుదృష్టిజం భయం నశ్యేత్ తథా ప్రేతాదిజం భయం మయా కథితమేతత్తే అమృత సంజీవనం పరం అల్పమృత్యుహరం స్తోత్రం మృతవత్సత్వనాశనం
Lastly, in the Yajna series, we conclude with 3 days for different forms of Lakshmi. Santana Lakshmi, who protects families, Veera Lakshmi, who gives strength to fight battles, and Vijaya Lakshmi, who gives victory. So we're going to listen to the Ashta Lakshmi Stotram, which mentions all 8 forms of Lakshmi.
చంద్ర సహోదరి హేమమయే మునిగణ మండిత మోక్ష ప్రదాయిని మంజుళ భాషిణి వేదనుతే పంకజ వాసిని దేవ సుపూజిత సద్గుణ వర్షిణి శాంతియుతే జయ జయ హే మధుసూదన కామిని ఆది ఉద్భవ మంగళ రూపిణి మన్
Selection is something called an Ashirvadam. This is a Vedic blessing which is typically recited as the very last mantra at the conclusion of a yagya performance.
Ashirvada mantram.
Om labhandeha putran labhandeha putran sarvasya te sarvasya jette sarvame vadena sarvam jayate radhyasmaham yeah.
सद्या मित्रं देवं मित्रधेयं नास्तो अनुराधानि हविषा वर्धयन्तः सदञ्जीरेव शरदः समीराः नवो नव भवति जायमानाह्नां केतुर्दशा मेत्यग्रे भागं देवेभ्यो वितधात्यायं प्रचन्द्रमास्तिरति दीर्घमायुः सुमङ्गलेरियं वधो निमागुं समेत पश्यत सौभाग्यमस्ये दत्त्वा यादास्थं विपरे तदा किमां त्वमिन्द्रमेद्वस्य पुत्रागुं शुभगाङ्गुरो दशास्यां पुत्राणादेहि पदिमेकादशं कृते शतमानं भवति शतायः पुरुषशतेन्द्रियायुष्येवेन्द्रिये प्रतिष्ठते श्रेर्वज्रस्वमायुष्यमारोज्यमाभिधाच्च भवानं महीयते धान्यं धनं वशं बहुपत्र लाभं सदसं वत्सरं दीर्घमायुः
यासने वाली 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 राका राका यासने वाली सने वाली या राका राका या राका या राका या राका या राकाया राका राकाया सरस्वती सरस्वती या राका राकाया सरस्वती या सरस्वती सरस्वती या सरस्वती सरस्वतीति सरस्वती सविता पश्चादाः सविता पुरस्ताः सवितोत्तरात्ताः सविता धरात्तात् सवितानश्चति सर्वदादिं सवितानो रासदां दीर्घमायुः ॐ प्रादार्यदारि प्रप्रादार्यज्ञे अग्ने अदारि प्रप्रादार्यज्ञे अदार्यज्ञे अग्ने अदार्यदार्यज्ञे प्रदराम् प्रदरामग्ने अदार्यदार्यज्ञे प्रदराम् अग्ने प्रदराम् प्रदरामग्ने अग्ने प्रदरान्न प्रदरामग्ने अग्ने प्रदरान्नः प्रदरान्न प्रदराम् प्रदरान्न आयुरायुर्न प्रदर प्रदरान्न आयुः प्रतरामिति प्रातराम् न आयुरायुर्न न आयुः आयुरित्यायुः सगम्भस्य लभक्तिषिरिन्द्रियाणि अङ्गान्यात्मन् विषजातदश्विना आत्मानमङ्गे समधा सरस्वती इन्द्रस्य रूपकं शतमानमायुः ॐ